एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः सर्वकारेण काष्ठमण्डपस्य तीनकुने स्थाने सम्भूतायाम् घटनायाम् मृतकानाम् परिवारेभ्य प्रतिपरिवारम् दशलक्षरूप्यकाणि प्रदातुम् निर्णीतम् वर्तते। मन्त्रिपरिषद उपवेशस्य निर्णयान् सार्वजनिकर्तुम् ह्यः संचार सूचना प्रविधि मन्त्रालये आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पृथ्वी सुब्बा गुरूङ गत चैत्र मासस्य पञ्चदशे दिवसे तीनकुने स्थाने सम्भूतायाम् घटनायाम् मृतकयोः सबिन महर्जन सुरेश रजकयोः परिवारेभ्य प्रतिपरिवारम् दशलक्षरूप्यकाणि प्रदातुम् निर्णीतम् अस्ति इति असूचयत। संचार मन्त्री गुरूङ आन्दोलनरतानाम् शिक्षकाणाम् याचनाम् पूरयितुम् सर्वकारेण गभीरतापूर्वकम् कार्यम् विधीयमानमस्ति इति चर्चयन् छात्र प्रवेशाभियानस्य परीक्षाफल प्रकाशनस्य परीक्षा सञ्चालनस्य च कार्यक्रमान् सञ्चालयितुम् दायित्वपूर्णतया विद्यालयान् प्रति गन्तुम् शिक्षकान् अनुरुणत। एवमेव मन्त्रिपरिषद उपवेशेन एतद् विक्रमवर्षीयां वैदेशिक सहायता परिचालन नीतिम् एतद् विक्रमवर्षीयां सार्वजनिक क्रयण सम्बद्धम् चतुर्दश संशोधन नियमावलीम् च स्वीकर्तुम् निर्णीतम् वर्तते। एवमेव उपवेशेन नेपाली सेनायाः त्रयोदश जनानाम् भारतीय सेनायाः दश जनानाम् चेति आहत्य समग्रतः त्रयोविंशतेः जनानाम् आरोहणदलस्य कृते पर्वतारोहणम् निःशुल्कम् विदातुम् विभिन्नेषु अन्तर्राष्ट्रिय सम्मेलनेषु कार्यक्रमेषु च सहभागितायै मन्त्रिस्तरीयेभ्य प्रतिनिधिमण्डलेभ्य स्वीकृतिम् दातुम् च निर्णीतमस्ति इति मन्त्री गुरूङ असूचयत्। सभामुखा देवराज घिमिरे गदति विद्यालय शिक्षा विधेयकाय प्राथमिकताम् प्रदाय पारितीकरणस्य दायित्वम् संसदः वर्तते। ह्य विभिन्न राजनैतिक दलानाम् प्रमुख सचेतक पदीयैः सामयिक विषयेषु विमर्शनाय आयोजिते उपवेशे सभामुखः घिमिरे नीति कार्यक्रमाणाम् आयव्ययकस्य विद्यालय शिक्षा विधेयकस्य च पारितीकरणस्य अनिवार्यतायाः चापस्य कारणेन शनिश्चरवासरम् सार्वजनिकावकाशस्य दिनानि च विहाय अन्येषु दिनेषु संसदः सञ्चालनाय प्रस्तावम् अकरोत्। प्रस्तावोऽसौ उपवेशेन अनुमोदितो वर्तते। तदनुसारेणैव च स्व वैशाखस्य द्वादश दिवसे कार्यव्यवस्था परामर्श समिते उपवेशे प्रस्तावोऽसौ प्रस्तोष्यते च। उपसमित्या अस्यैव वैशाखस्य त्रयोविंशम् दिवसम् यावत् प्रतिवेदनस्य अर्पणाय विहितायाः प्रतिबद्धतायाः ज्ञापनस्य अवस्थायाम् विद्यालय शिक्षा विधेयकाय प्राथमिकताम् प्रदाय यस्मिन् कस्मिन्नपि दिने संसदि विधेयकमेत प्रस्तुतुम् शक्यते इति सभामुखा घिमिरे असूचयत्। अत्रान्तरे सांसदैः शिक्षकाणाम् आन्दोलनस्य विषयान् सर्वकारेण सम्बोधयितुम् विलम्बनम् न विधेयम् इति परामृष्टम् वर्तते। राष्ट्रियसभायाः अन्तर्गतायाः सार्वजनिक नीति प्रत्यायोजित विधायन समितेः ह्यः उपविष्टे उपवेशे सांसदाः दीर्घसमयम् यावत् शिक्षकाणाम् आन्दोलनस्य दशायामपि सर्वकारेण गभीरतया स्वीकृतम् नास्ति इति उक्त्वा तत्कालम् याचनाम् सम्बोधयितुम् समितेः माध्यमेन सर्वकाराय परामर्शनम् प्रदत्तवन्तः सन्ति। प्रतिनिधिसभाया अन्तर्गतया राज्यव्यवस्था सुशासन समित्या संघीय सर्वकारीय सेवाया संगठन सञ्चालनयोः सेवा शपथस्य च सन्दर्भे व्यवस्थातुम् निर्मितस्य विधेयकस्य प्रस्तावना नाम च समित्या अनुमोदिते स्तः। समित्या ह्य विधेयकस्य प्रारूप प्रतिवेदनम् आदृत्य विहितस्य विमर्शनस्य पश्चात् प्रस्तावनायाम् उत्तरदायी शब्दस्य स्थाने जनोत्तरदायी समावेशी पारदर्शी परिणाममुखी प्रविधि मैत्री चेति शब्दानाम् सुशासनमुखी इति शब्दस्य स्थाने सुशासनयुक्त इति शब्दस्य स्थापनस्य प्रस्तावः अनुमोदितो वर्तते। एवमेव सेवानिवृत्त कर्मचारिणः न्यायालयात् भ्रष्टाचारिणः सन्तीति निश्चयनस्य अवस्थायां तस्य निवृत्तिभरणस्य अवरोधनस्य व्यवस्थायामपि सहमतिः सम्भूतास्ति। राष्ट्रपतिना रामचन्द्र पौडेलेन शिक्षा विज्ञान प्रविधि मन्त्रीपदे रघुजी पन्त नियुक्तो वर्तते। राष्ट्रपति पौडेल प्रधानमन्त्रिण केपी शर्मौलिन परामर्शेन नेपालस्य संविधानस्य अनुसारेण पन्तम शिक्षा मन्त्रीपदे नियुक्तवान स्थिति राष्ट्रपति कार्यालयेन ज्ञापितं वर्तते। अस्यैव वैशाख मासस्य अष्टमे दिवसे विद्या भट्टराई इत्यनया शिक्षा विज्ञान प्रविधि मन्त्रीपदात् त्यागपत्रं दत्तम् आसीत्। नवनियुक्तः शिक्षामन्त्री पन्तः नेकपा एमाले दलस्य पक्षतः समानुपातिक निर्वाचन प्रणालीतः निर्वाचितः सांसदो वर्तते। नवनियुक्तः शिक्षामन्त्री पन्तः अद्य शपथं गृह्णाति। एवमेव ऊर्जो जलस्रोत सेचन राज्यमन्त्री पूर्णबहादुर तामाङ राज्यमन्त्रिणः दायित्वात् अपसारितो वर्तते। राष्ट्रपतिना रामचन्द्र पौडेलेन सह संयुक्त अरब इमिरेट्स देशस्य उप प्रधान विदेश मन्त्री शेख अब्दुल्लाह बिन जायद अल नायान शिष्टाचार मेलनम् अकरोत्। शीतल निवास वर्तिनी राष्ट्रपति भवने ह्य विहिते मेलने। राष्ट्रपतिः पौडेलः स्रोत साधनानाम् अत्यावश्यकवद्भ्य देशेभ्य जलवायु परिवर्तनस्य तथा सृष्टस्य प्रभावस्य च क्षतेः पूर्तये प्राविधिकार्थिक सहयोगं प्रदातुम् अनुरुणत। तदवसरे यूएई देशस्य उप प्रधानमन्त्री नायान नेपाल यूएई देशयोर्मध्ये सहकार्यस्य भव्याः सम्भावनाः सन्तीत्यतः एतदर्थं प्रयासेभ्य नैरन्तर्यं प्रदेयमिति उक्तवान् इति राष्ट्रपतेः संचार परामर्शदाता किरण पोखरेलः असूचयत्। सैव प्रधानमन्त्रिणा केपी शर्मा ओलिना च सह यूएई देशस्य उप प्रधानमन्त्रिणा विदेशमन्त्रिणा च नायान इत्यनेन ह्य शिष्टाचार मेलवार्ता विहिता वर्तते। सीमा प्रसाद वर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालये बीते एतयोर्मेलने देशद्वयस्य मध्ये परस्परं सहकार्यस्य व्यापार निवेशनयोश्च विविधेषु विषयेषु विमर्शनं सम्भूतम् आसीत्। प्रधानमन्त्रिणा केपी शर्मा ओलिना भारतस्य जम्मू कश्मीर राज्यस्य पहलगाम इत्यस्मिन् स्थाने पर्यटकेषु विहितस्य आतंकवादिनाम् आक्रमणस्य घटनाया भर्त्सना विहितास्ति। एक सामाजिक सञ्जाले प्रधानमन्त्रिणा ओलिना आक्रमणे निपत्य त्यक्त प्राणान् जनान् प्रति गभीर समवेदना च व्यक्ता वर्तते। इति समाचाराः।